भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येह्माच्च प्रियजत्राः स्थिरैरङ्गैतुष्टुवागुंसस्तनूभिः व्यसेम देवहितं यदायुः भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येह्माच्च प्रियजत्राः स्थिरैरङ्गैतुष्टुवागुंसस्तनूभिः व्यसेम देवहितं यदायुः भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येह्माच्च प्रियजत्राः स्थिरैरङ्गैतुष्टुवागुंसस्तनूभिः व्यसेम देवहितं यदायुः भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येह्माच्च प्रियजत्राः स्थिरैरङ्गैतुष्टुवागुंसस्तनूभिः व्यसेम देवहितं यदायुः भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येह्माच्च प्रियजत्राः स्थिरैरङ्गैतुष्टुवागुंसस्तनूभिः व्यसेम देवहितं यदायुः भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येह्माच्च प्रियजत्राः स्थिरैरङ्गैतुष्टुवागुंसस्तनूभिः व्यसेम देवहितं यदायुः भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येह्माच्च प्रियजत्राः स्थिरैरङ्गैतुष्टुवागुंसस्तनूभिः व्यसेम देवहितं यदायुः भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येह्माच्च प्रियजत्राः स्थिरैरङ्गैतुष्टुवागुंसस्तनूभिः व्यसेम देवहितं यदायुः भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येह्माच्च प्रियजत्राः स्थिरैरङ्गैतुष्टुवागुंसस्तनूभिः व्यसेम देवहितं यदायुः भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येह्माच्च प्रियजत्राः स्थिरैरङ्गैतुष्टुवागुंसस्तनूभिः व्यसेम देवहितं यदायुः। भद्रं कर्णेभिः श्रुणुयाम देवाः भद्रं पश्येह्माच्च प्रियजन्त्राः स्थिरैरङ्गैस्तुष्टुवागुंसस्तनूभिः व्यसेम देवहितं यदा